वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये जगतः पितरौ वन्दे पार्वती परमेश्वरौ येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्तिः शान्तिः शान्तिः। गुरुभ्यो नमः। नमस्कारः भगिनि।
नमस्ते, धन्यवादः, सुन्दरं, धन्यवादः। अस्तु, अद्य किं कुर्मः, एका कथा अहं प्रेषितवती, सर्वेषां पार्श्वे अस्ति वा? एका कथा अस्ति, प्रयत्नशीलानां देवोऽपि सहायक न?
आं
भगिनि,
अस्मि भगिनि, अहं प्रिण्ट् औट् है।
अस्तु अस्तु, पपजी शैलजा भगिनी अस्ति वा? प्रयत्नशीलानाम्।
आं भगिनि,
पपजी
ठीक है,
है ना आपके पास कहानी? अस्तु, शैलजा भगिनी भवती एव एकवारं प्रथम परिच्छेद पठतु भगिनि।
आं भगिनि, एकः देवभक्तः आसीत्। सः प्रतिदिनं भक्त्या देवस्य प्रार्थनां करोति स्म। देव कृपया मह्यम् आरोग्यं यच्छतु, धनं यच्छतु इति। सः किञ्चिदपि प्रयत्नं न अकरोत्, किमपि कार्यं न अकरोत्। देवः एव सहायतां करिष्यति इति तस्य विश्वासः आसीत्।
अस्तु, पापाजी अग्रिमपरिच्छेदे अग्रिमपरिच्छेदे पठतु, नेक्स्ट पैराग्राफ।
कहां से? हम तो सुन रहे थे।
आपके पास कहानी है सामने?
नहीं, कौन सी कहानी? हमारे पास किताब नहीं है कहानी वाली को।
नहीं, किताब में नहीं, फोन में भेजा था दीपक को। अच्छा, हाँ, सुधा भगिनी पठतु।
आम भगिनी, एकस्मिन् दिवसे सः वृषभकटेन गच्छति स्म। मृणमार्गः आसीत्, तदेव वृष्टिः आरभत। घटिकात्रयं वृष्टिः निरन्तरम् आगतवती। तदा तस्य शकटस्य चक्रं मार्गे पङ्के निमज्जितम्। सः उपविश्य प्रार्थनां कृतवान्, देव कृपया मम सहायं करोतु, अहं तु तव परमभक्तोऽस्मि, मयि कृपां करोतु इति।
नमस्ते कविता भगिनी, स्वागतम्।
नमस्कारः, धन्यवादः।
नमस्कारः भगिनी, नमस्कारः, कथमस्ति? सर्वं सम्यक् अस्ति वा?
आं भगिनि, एण्ड् हौस् एव्रिथिङ्ग् वित् यू आल्?
बहुदिनानन्तरम्, उत्तमं, सर्वम् उत्तमं भगिनि, धन्यवादः। अस्तु, एका कथामहं प्रेषितवती फोन् वाट्साप् मध्ये,
आन् द मेल्।
ओके, तदेव वयं पठामः अधुना। तु तृतीयपरिच्छेदं थर्ड पैराग्राफ पठतु कविता भगिनी।
आपने व्हाट्सएप पे भेजी थी या ईमेल पे? आई थिंक ईमेल आया था ना,
व्हाट्सएप मध्ये वा
ईमेल मध्ये भगिनी?
ईमेल मध्ये, अस्तु ईमेल मध्ये।
ओके, सो दिस इज पेज टू,
पेज वन ओनली। प्रयत्नशीलानां देवोपि सहायक इति शीर्षकः।
Yes, so then there is a page 2 attachment. It says the third para is tasmin avsare.
Tadeva, padhatu bhagini.
Tasmin avsare ekah sajjanah tatra agatavan, bhaktam drishtva prishtavan, bho mitra kachit sahayatam vanchasi nava iti, tada bhaktah uktavan. भवतः साहाय्यं न आवश्यकं, देवः एव मम साहाय्यं करिष्यति इति। तदा सज्जनः गतवान्।
उत्तमं, शैलजा भगिनी अग्रिमम्।
आं भगिनी, एवमेव प्रकारेण क्रमशः अनेके जनाः आगच्छन् अपृच्छन् च, भो मित्र किञ्चित् सहायम् आवश्यकं न वा इति। सः तथैव उत्तरत् यत् देवः एव सहायं करिष्यति।
उत्तमं, सुधा भगिनी।
आं भगिनि, वृष्टिः तीव्रा अभवत्, जलं तस्य कण्ठपर्यन्तम् आगतवान्, तथापि तेन किमपि प्रयत्नं न कृतम्। परिणामतः अन्ते सः जले निमग्नः भूत्वा मृतवान्।
उत्तमं, कविता भगिनी।
मरणान्तरं सः स्वर्गं गतवान्, देवान् पृष्टवान्, भो देव अहं भवतः परं भक्तोऽस्मि, तथापि भवान् सङ्कटकाले मम सहायतायै न आगतवान्, किमर्थम् इति।
शैलजा
भगिनी, कविता भगिनी पठति पति वा भगिनी? न शृणोति।
अस्ति वा, न शृणोति वा?
न शृणोति भगिनि।
अहं तु शृणोमि।
मेबि ऐ गाट् सम् ग्लिच्। आहा, मेबि ऐ गाट् सम् ग्लिच् हियर् ऐ थिंक्।
अस्तु, एकवारं पुनः पठतु कविता भगिनि।
आम् आम्, मरणान्तरं सः स्वर्गं गतवान्, देवांश पृष्टवान्, भो देव अहं भवतः परं भक्तोऽस्मि, तथापि भवान् सङ्कटकाले मम सहायतायै न आगतवान्, किमर्थम् इति।
अग्रिमं पठतु शैलजा भगिनी।
वन् मिनिट् भगिनि। ऐ एक्सिडेण्ट्लि क्लोस्ड् द कथा पेज्।
Bhagini, I think I'm not pronouncing the word Devansh, Devansh correctly. Can you please help me? The starting fifth word. Maranantaram saha swargam gatavan.
Devansh. Devansh.
Devansh. Devansh. Okay.
The next one is in third page, no, Bhagini?
Tada.
Tada. Tada. Tada devaha uktav. तदा देवः उक्तवान्, भो भक्त अहं तु अनेकवारम् आगतवान्, पृष्टवान् च, सहायम् आवश्यकं न वा इति, परन्तु भवान् स्वीकृतवान्। यदि भवान् प्रयत्नम् एव न करोति तर्हि अहं कथं सहायं कर्तुं सहायं कर्तुं शक्नोमि इति शक्नोमि सहायं कर्तुं शक्नोमि इति देवस्य आं भगिनि
सुधा भगिनी
समाप्तं देवस्य वचनानि श्रुत्वा भक्तस्य ज्ञानोदयः अभवत् यत् प्रयत्नशीलानां देवोऽपि सहायकः
तदेव उत्तमं कथा तु सरलमेव किन्तु अवगतं किन्तु किञ्चित् किञ्चित् अवगतं वा
आं भगिनि
किञ्चित् किञ्चित् भगिनि आं किञ्चित् किञ्चित्
कहानी समझ आए पापा जी कहानी समझ आई
हाँ हाँ गॉड
सॉरी
गॉड हेल्प्स दोस गॉड हेल्प्स दोस हु हेल्प देमसेल्व्स
इतना फालतू में हम लोग पढ़ रहे हैं आपने इतना अच्छे से इतना बोल दिया अभी क्लास खत्म कर दे उत्तमम उत्तमम कविता भगिनी अवगतम किंचित
आम भगिनी
हा अस्तु अधुना एकमेकं पंक्तिशः स्वीकृत्य किञ्चित् किञ्चित् परिशीलयामः पुनः अस्तु कविता भगिनी भवती एव आरम्भं करोतु एकः देवभक्तः
यस् भगिनी ऐ एम सॉरी व्हाट एम आई
एक्सपेक्टिंग एकवारं पठतु
ओके ओके एकः देवभक्तः आसीत् सः प्रतिदिनं भक्त्या देवस्य प्रार्थनां करोति स्म देव कृपया मह्यम् आरोग्यं यच्छतु धनं यच्छतु इति सः किञ्चिदपि प्रयत्नं न अकरोत् किमपि कार्यं न अकरोत् देवः एव सहायतां करिष्यति इति तस्य विश्वासः आसीत्
आसीत् उत्तमम्
आसीत्
किम् इत्युक्ते सरलं सरल अर्थ किम्
एक देवभक्त होते हैं वो प्रतिदिन अपनी भक्ति में भगवान से प्रार्थना करते हैं ऐसी वाली के हे भगवान आप हमें कृपया मुझे कृपया बहुत अच्छा स्वास्थ्य दे और बहुत सारा धन भी दे तो वो सिर्फ ये प्रार्थना करते थे और कुछ एक्शन नहीं करते थे कार्य नहीं करते थे किंचित अभी प्रयत्न न अकरोत वो कुछ एक्शन नहीं लेते थे कार्यम न अकरोत तो देवः एव सहायतां करिष्यति इति उनका दृढ़ विश्वास था कि सिर्फ प्रार्थना से ही उनकी मनोकामना पूर्ण होगी
तदेव तदेव उत्तमम् अधुना एकः देवभक्तः आसीत् क्रियापदं किम्
आसीत् होना
आसीत् धातु किम्
सोरि भगिनि डिस्कनेक्टेड् फ्रोम् द धातु
धातुतः आसीत् आसीत् कीदृशक्रियापदम् past tense
bhutakalarthak
aasit kartrupadam kim
devabhaktah
devabhaktah aasit ekah kidrisha padam
visheshana
uttamam ekah devabhaktah devabhaktah kidrisha kartrupadam
Sorry, I'm blank, a little blank on that front. I think somebody else can help.
Pumlingaha.
Yes.
Akaranta. Ekavachana. Vadatu.
Yes. Sorry, Bhagini.
Vadatu.
Akarantaha pumlingaha ekavachana rupam shabda asti.
Prathama vibhakti ekavachana rupam tadeva. समानेव एकः विशेषणविशेष्य समानेव अस्तु तदनन्तरं सः प्रतिदिनं भक्त्या देवस्य प्रार्थनां करोति स्म करोति स्म. करोति स्म इत्युक्ते दीपशिका भगिनी नमस्ते. एका कथा अस्ति प्रयत्नशीलानां देवोपि सहायक. ईमेल् मध्ये अहं प्रेषितवती.
अच्छा, ईमेल् मध्ये. ओके,
उद्घाटनं करोतु. अस्तु, हा कविता भगिनी.
आं भगिनी, करोति स्म.
करोति स्म, करोति स्म इत्युक्ते किम्?
नै पता भगिनी.
सुधा भगिनी,
करोति इति वर्तमानकालार्थकः अस्ति, करोति स्म भूतकालार्थकः भवति.
भूतकालार्थक अपि वारं वारं यत्किमपि कार्यम् अभवत् तत्तु स्म. यदि एकवारं किमपि अहं करोमि तत्तु स्म नास्ति तत्र.
ओके,
हा हा, वारं 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 वारम् एकं कार्यं कुर्मश्चेत् करोति स्म. भूतकालार्थक तु भवेत्, किन्तु वारं वारम् इति एकम् अन्य किं दृष्टिकोण अपि तत्र अस्ति.
ओके,
हा, करोति स्म, कर्ता है. कर्ता है मीन्स वो बार बार करता है, बार बार से कर रहा है, बहुत टाइम से कर, करता लगा आ रहा है, लगातार करता आ रहा है, समथिंग लाइक दैट.
वो पास्ट कंटिन्यूअस टेंस.
हाँ, समथिंग लाइक दैट. इट ब्रिंग्स दैट इन. कंटिन्यूअस में तो कोई भी कार्य शुरू होके खत्म नहीं हुआ. कंटिन्यूअस,
सॉरी, हाँ, राइट राइट, द एक्शन इज गोइंग ऑन. यहाँ पर द सेम एक्शन इज रिपीटेड, करेक्ट.
हाँ, रिपीटेड, वारं वारं. करोति स्म, तत्र कर्तृपदं किं भगिनी, कविता भगिनी? करोति स्म,
करोति,
कः करोति?
प्रार्थना
न, कः करोति? कर्तृपदं किं? कर्तृपदम् इत्युक्ते डूअर्,
द डूअर् आफ् दि एक्शन्. भक्त्या,
भक्त्या वा? भक्त्या कीदृशपदं?
सः, 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 सारि, सः इस् रेफरिङ्ग् टु द देवभक्तः. सः इस् द डूअर् आफ् दि एक्शन्.
उत्तमं, सः देवभक्तः इति तु कर्तृपदम् अस्तु. कर्मपदम् तत्र अस्ति वा वाक्ये?
यस्, प्रार्थनां,
प्रार्थनां करोति. उत्तमं, कर्मपदम् अस्ति चेत् विभक्तिरूपं किं? द्वितीया,
द्वितीया,
द्वितीयविभक्ति. प्रार्थना, प्रार्थना आकारान्तस्त्रीलिङ्गपदं. प्रार्थनां तु द्वितीयविभक्ति, एकवचन आकारान्तस्त्रीलिङ्गरूपम् अस्ति चेत् प्रार्थनां करोति स्म. अधुना प्रतिदिनम् इति कीदृशपदम्?
Should be an avyay padam. It may not change with the teen ling or teen vachan mein. I'm not sure though.
Haan.
Kyunki kuch hum daily karte hain. To koi bhi kar sakta hai wo. That's it. But I'm just taking a guess, Bhagini.
Kopi, anya kopi sahayam karo tu. Prati dinam kidrisha padam.
Pratnam iti visheshya asti. प्रतिदिनं प्रार्थनां विशेष्य विशेषणविशेषभावम् अस्ति द्वयोः मध्ये.
भवितुम् अर्हति, किन्तु कविता भगिनी सत्यमेव उक्तवती. इत्युक्ते अव्ययं पदम् इत्युक्ते आक्चुलि समासपदं. प्रतिदिनं, प्रतिदिनम् अव्ययीभावसमास अस्ति. दिनं प्रतिदिनं सर्वासु विभक्तिषु एकमेव रूपम् अस्ति, केवल पञ्चमी विभक्ति विहाय. प्रतिदिनात् इति भवति, अन्यथा सर्वासु विभक्तिषु प्रतिदिनं प्रतिदिनम् एव तिष्ठति. अव्ययपदं तत्र समास अस्ति. अत्र तु प्रतिदिनं प्रार्थनां करोति स्म. अस्तु, अर्थ तु अवगतम्. अस्तु, अधुना कविता भगिनी, भक्त्या देवस्य इत्युक्ते किं? भक्त्या कीदृशपदं, कीदृशरूपम्?
सोरि भगिनी, मतलब थोड़ा थोड़ा सेंस है बट मैं उसको शब्दों में नहीं बता पा रही हूँ. देवस्य तो ये है आई थिंक षष्ठी विभक्ति अकारांत पुंलिंग पद.
उत्तम,
संबंध दे रहा है.
संबंध इत्युक्ते देव का, देव की,
देव को,
देव की.
हाँ,
को ना, को तो द्वितीय.
हाँ सॉरी, ओके ओके सॉरी.
देव
की प्रार्थना
का के की भक्त्या. शैलिजा भगिनी, कीदृश पदम भक्त्या?
आम भगिनी,
हाँ भक्त्या कीदृश पदम?
वन मिनट.
सुधा भगिनी,
इकारांत स्त्रीलिंग पदम अस्ति. मतिवत्,
मतिवत्
तृतीय विभक्ति एकवचन स्त्रीलिंग पदम अस्ति.
तृतीय विभक्ति एकवचन रूपम्. मतिवत्, मतिवत् कविता भगिनी, मति इति एकं पदम् अस्ति. शब्दमञ्जर्यां पश्यतु.
यस, आम भगिनी, आई एम लुकिंग एट इट.
सर्वाणि रूपाणि एकवारं पठतु.
इकारान्तः स्त्रीलिङ्ग मति शब्द प्रथम विभक्ति मतिः, मति मतयः, संबोधन, संबोधनवाचक इज हे मते. संबोधन प्रथमा, हे मते, हे मति, हे मतयः. द्वितीय विभक्ति मतिम, मति, मतिः. तृतीय विभक्ति मत्या, मतिभ्याम, मतिभिः. चतुर्थ विभक्ति मत्यै, मतये, मतिभ्याम, मतिभ्यः. पंचमी विभक्ति मत्याः, मतेः, मतेः, मतिभ्याम, मतिभ्यः. षष्ठी विभक्ति मत्याः, मतेः, मत्योः, मतीनाम. सप्तमी विभक्ति मत्याम, मतौ, मत्योः, मतीषु,
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 मतीषु, ह्रस्व इक मतीषु.
अत्र
तु तृतीयरूपं किं? मत्या. भक्ति अस्ति चेत्
मत्या,
भक्ति अस्ति चेत्
भक्त्या,
भक्त्या, भक्त्या. भक्त्या इत्युक्ते किम्? भक्त्या इत्युक्ते तृतीया इत्युक्ते भक्ति द्वारा,
भक्ति द्वारा, राइट.
भक्ति द्वारा, भक्ति द्वारा देवस्य प्रार्थनां करोति स्म. अवगतम् अधुना? सः इत्युक्ते देवभक्तः प्रतिदिनं प्रार्थनां करोति स्म इति तु अवगतं. तदनन्तरं कस्य प्रार्थनां? देवस्य प्रार्थनां. कया? भक्त्या. किसके द्वारा? भक्ति से, भक्ति द्वारा. देव कृपया मह्यम आरोग्यम यच्छतु तु एकं वाक्यम् अस्ति. अत्र क्रियापदं किं? शैलिजा भगिनी वदतु. देवः, देव कृपया मह्यम् आरोग्यं यच्छतु.
देव कृपया मह्यम् आरोग्यं गच्छतु. आरोग्यम् इस् यच्छतु इस् क्रियापदं. यच्छतु इस् क्रियापदं.
लोट् इत्युक्ते
तु अन्तस्य पदं प्रातिपदिकम् अस्ति. लट् शब्दः
प्रातिपदिकं तु न अस्ति.
नो, नाट् प्रातिपदिकं, सोरि भगिनि. प्रत्ययः, प्रत्यारः, अन्तिमचिह्नं या
अन्तिमरूपं
अन्तिमरूपं तु आयाति चेत् लट् शब्दः अस्ति
लोट्
सोरि भगिनि लोट्
ति
भगिनि
इति तु लट् अस्ति लट् इत्युक्ते लट्
आं भगिनि दिस् इस् रिक्वेस्टिङ्ग् फार्म् सो इट् इस् लोट् तु आयाति चेत् रिक्वेस्टिङ्ग् प्रार्थनाय आज्ञा भाव अस्ति
प्रार्थना यच्छतु इत्युक्ते
यच्छतु मीन्स् प्लीस् गिव्
यच्छतु यच्छतु उत्तमं किं यच्छतु
आरोग्यं यच्छतु
आरोग्यम् इत्युक्ते
आरोग्यम् इस् हेल्त्
रोग नास्ति चेत् आरोग्यम्
आं भगिनि
आरोग्यं यच्छतु मह्यं कीदृशपदं
मह्यम् इस् फर् मी
विभक्तिरूपं किं
विभक्तिरूपं षष्टि वा भगिनि मम षष्टि षष्टि
भगिनि
चतुर्थी एकवचनं
मह्यं मह्यम् इत्युक्ते
मह्यं
मेरे लिये
आं भगिनि
मेरे लिये कृपया मह्यं कृपया कीदृशपदं
कृपया अव्ययपदमस्ति कृपया मह्यं न कृपया इस् अव्ययपदम् अस्ति भगिनि
अव्ययं तदनन्तरं
देव कृपया मह्यम् आरोग्यं यच्छतु
देव कीदृशपदं
देव अकारान्त पुल्लिङ्ग् शब्दः अस्ति
तत्तु सत्यं विभक्तिरूपं
सम्बोधनभावः अस्ति
सम्बोधन देव यथा राम यच्छतु धनं यच्छतु धनम् इत्युक्ते
धनम् इस् वेल्त्
वेल्त् धनं यच्छतु धनं कीदृशपदं
धनं शुड् बि नपुंसकलिङ्गपदं द्वितीयविभक्ति वा भगिनि
नपुंसकलिङ्गं कर्मपदं द्वितीयविभक्ति एकवचनं धनं धने धनानि फलं फले फलानि
आं भगिनि
उत्तमम् उत्तमम् अधुना अग्रिमं वाक्यं करोतु शैलजा भगिनि
आं भगिनि इति सः किञ्चिदपि प्रयत्नं न अकरोत्
सः किञ्चिदपि प्रयत्नं न अकरोत्
इति इस् अव्ययपदम् अस्ति सः प्रथमपुरुष एकवचनशब्दः अस्ति
इति तु पूर्वस्मिन् वाक्ये अस्ति अधुना तु नूतनवाक्ये अस्ति इति इत्युक्ते देव कृपया मह्यम् आरोग्यं यच्छतु
इति इस् आरोग्यम् एण्ड् इस् आस्किङ्ग् लैक् इति हियर् रिलेट्स् टु आरोग्यम् इति सः किञ्चिदपि
न न भगिनि इति इत्युक्ते किं सुधा भगिनि
इति इस् दिस्
इत्युक्ते कोट्स्
या
कोटेशन् मार्क् अस्ति चेत् इति आयाति तत्र
शैलजा भगिनि इति पूर्ववाक्यस्य इति तत्र
आं भगिनि इच्छतु इति आम्
कोटेशन् मार्क्स् इस् गिवन् नो
यस् यस् भगिनि ऐ सीन् ऐ एम् सीयिङ्ग् दिस् नौ
इन् संस्कृत कोटेशन् मार्क्स् डू नाट् एक्सिस्ट् दिस् पङ्क्चुएशन् मार्क् डस् नाट् एक्सिस्ट् सो हौ डू दे टेल् यू वाट् इस् अ actually said versus what is paraphrased
iti they use iti bagini
iti at the end iti has many meaning all of the meanings are something like this but it has many usages so when it is said like this then immediately you know it is a quotation means no word has been mixed around this is exactly what he said quotation marks
आं भगिनि
देव कृपया मह्यम् आरोग्यं यच्छतु धनं यच्छतु इति एण्ड् आफ् कोर्स् इति अधुना नूतनवाक्यमस्ति पठतु सः
सः किञ्चिदपि प्रयत्नं न अकरोत्.
क्रियापदं किम्?
सः इस् क्रियापदं.
क्रियापदं भगिनि इत्युक्ते क्रियापदम् इत्युक्ते
सोरि भगिनि, अकरोत्. अकरोत् इस् क्रियापदं.
कीदृशपदम् अकरोत्?
भूतकाल
भूतकालात्
भाव अस्ति.
लकार किम्? लङ्.
लकार लङ्. आं भगिनि.
लङ् अ आयाति आदौ. आदौ इत्युक्ते सामने, पहले, आदि मे. आदौ सप्तमी अस्ति. आदौ आदौ किम् अभवत्? अ आयाति. तदनन्तरं करोत्. अकरोत् इत्युक्ते लङ् रूपम् अस्ति.
All the lung forms have a, not no, bhagini?
All will have a.
Bhagini.
It is a lung specialty. Means happened. Akarot. Na akarot. Atra tu na akarot.
Na.
Na akarot. Kim na akarot?
Prayatnam na akarot.
Prayatnam na akarot. Prayatnam ki drusha padam?
Prayatnam... is I think it is napunsakalinga padam, prathama vibhakti ekavachanam va bhagini.
Satyam va
prayatnam. I'm checking bhagini. Prayatnam is pullinga shabda asti bhagini. Sorry, pullinga shabda. Prayatnam is advitiya vibhakti ekavachan shabda asti.
कर्मपदं.
कर्मपदमस्ति.
प्रयत्नं न करोत्. किं न करोत्? प्रयत्नं न.
प्रयत्नं न करोत्.
तदनन्तरं किञ्चित् अपि. अत्र किम् अभवत्?
किञ्चित् सः किञ्चित् अपि. नाट् इवन् किञ्चित् अपि इस्
किञ्चित् इत्युक्ते लघु.
हा.
अपि इत्युक्ते इवन् भी, छोटी भी, छोटा भी, छोटा सा भी.
Not even a small, small trial.
थोड़ा सा भी प्रयत्न न अकरोत्. सः कः?
सः देवभक्तः.
सः देवभक्तः. अन्य अन्य वाक्यं पूर्ण पूर्णतया पठतु. किमपि
किमपि कार्यं न अकरोत्. किमपि कार्यं न करोत्. देवः एव सहायतां करिष्यति इति तस्य विश्वासः आसीत्.
अधुना तु किमपि कार्यं न अकरोत् इति विषये.
नाट् इवन् किमपि किमपि इस् अव्ययपदमस्ति. कार्यं नपुंसकलिङ्गपदम्.
किमपि अत्र किम् अभवत्? सन्धिकार्यम् अभवत्. किमपि सन्धिकार्यं. किं
किं योगः अपि? किमपि
किं योगः अपि? किम् अव्ययं पदं वा?
नो भगिनि, नाट्.
अपि तु अव्ययं
प्रश्नवाचकशब्दः अस्ति. बट् किमपि
किमपि तु
किमपि तु अव्ययपदम् अस्ति वा?
वर्णमेलनेन नूतनपदमायाति. किमपि तदेव. किमपि अपि तु अव्ययपदम् अस्ति वा न?
आं भगिनि, अपि इस् अव्ययपदम् अस्ति. किम् इस् प्रश्नवाचकशब्दः अस्ति.
अपि कारणेन किमपि अपि अव्ययं भवति. किन्तु किम् किम् एकं पदम् अस्ति तत्तु अव्ययं नास्ति. इति स्मर्तव्यम्. इति स्मर्तव्यम्. अस्तु, अधुना किमपि कार्यं न अकरोत् कर्मपदं किम्?
किमपि कार्यम् इस् विशेषणविशेषभावः अस्ति वा भगिनि?
न न, किमपि तु किमपि कीदृशपदम् अधुना एव वयम् उक्तवन्तः. इत्युक्ते अव्ययपदम्। किमपि तु अव्यय अस्ति, कार्यं कीदृशपदं तत्र?
कार्यम् इस् नपुंसकलिङ्गशब्दः द्वितीयविभक्ति, एकवचनशब्दः अस्ति।
कर्मपदं?
कर्मपदमस्ति।
विशेषणविशेषभावः नास्ति तत्र, किमपि कार्यं न अकरोत्, कार्यं न अकरोत्।
सो बट् ही इस् डिस्क्रैबिङ्ग् दट् एक्षन् भगिनि, नाट् इवन् किमपि।
उत्तमम्, तत्तु सत्यं, किमपि कार्यं, किन्तु विशेषणविशेष्यभावः नास्ति तत्र। किमपि कार्यमेव, किमपि कार्यं न करोत्। कः न करोत्? देवभक्तः किमपि कार्यं न करोत्। कीदृशकार्यं?
प्रार्थना, ऐ मीन् कर्मकार्यं वा भगिनि?
हा, इत्युक्ते स्वस्य सहायं विषये किमपि कार्यं न करोत्। स्वस्य, स्वस्य
सेल्फ्, स्वस्य भगिनि,
स्वस्य, स्वस्य सहायं, स्वस्य सहायं विषये, स्वस्य सहायस्य विषये, सहायं विषये किमपि कार्यं न करोत्। फार् हिस् ओन् हेल्प् ही डिड् नथिङ्ग्, फार् हिस् ओन् वाट् ही वाण्टेड् ही डिड् नथिङ्ग्। तदनन्तरम् अन्तिमवाक्यं, देवः,
देवः एव सहायतां करिष्यति, सहायतां करिष्यति इति तस्य विश्वासः आसीत्। नाट् इवन् डूङ्ग् एनी वर्क्, हि इस् जस्ट् अस्यूमिङ्ग् दट् गाड् विल् हेल्प् हिम् औट्। सो हि इस् आसीत् इस् इति विश्वासे भवति इति विषये।
आसीत् कीदृशपदम्?
आसीत् इस् भूतकालशब्दः अस्ति,
लङ् रूपम्, लङ् रूपं धातु किम्? अस्धातुतः,
अस्धातुतः आसीत्,
लङ् आसीत्। कः आसीत्? कः आसीत्? बाय् बेटा, आसीत् कः आसीत्? सुधा भगिनी,
विश्वासः आसीत्।
हा, विश्वासः आसीत्, तत्र तु कर्तृपदम् अस्ति, विश्वासः आसीत्। कस्य विश्वासः?
न कार्यं करोति, सहायं, देवः किमपि सहायं, देवभक्तः कार्यं न करोति, किन्तु देवः इति आरोग्यम् अपि धनं
मह्यं ददाति इति
विश्वासः आसीत्।
कस्य विश्वासः? इत्युक्ते
कस्य इस्
षष्टिप्रश्नवाचक, षष्टि इत्युक्ते
सम्बन्धः,
कस्य इत्युक्ते किस्का, कस्य इत्युक्ते किस्का, कस्य विश्वासः, किस्का विश्वासः?
देवभक्तः का विश्वासः?
देवभक्तस्य
विश्वासः,
देवभक्तस्य विश्वासः आसीत्। देवः एव सहायतां करिष्यति, करिष्यति कीदृशपदम्?
करिष्यति क्रियापदम् अस्ति, विशेषणक्रियापदम् अस्ति.
विशेषण तु न, क्रियापदम् अस्ति. कीदृशक्रियापदं? लकार किं
करिष्यति?
भविष्यत् काल इत्युक्ते लृट्, लृट् लृट् लकार अस्ति चेत् इत्युक्ते भविष्यत् काल. भविष्यत् इत्युक्ते
फ्यूचर्.
करिष्यति, कः करिष्यति?
सहायतां.
कः
देवः? देवः करिष्यति.
किं करोति? किं करिष्यति?
किं सहायताम् इति धनं वा आरोग्यम् इति सहायतम्?
हा, सहायताम् इत्युक्ते देवः एव सहायतां करिष्यति. No one else.
God himself. God himself does the help.
Not only himself, only God.
Only God.
God himself only. Deva eva. Tasya vishwasaha aasit. Uttamam. Uttamam. Dhanyavada. Deepshika bhagini. Agrimam. Patitum ichati va?
आं भगिनि.
अन्यथा सुधा भगिनी करोति.
एकस्मिन् दिवसे सः
वृषभशकटेन
गच्छति स्म. एकस्मिन् दिवसे एकदिन
क्रियापदं किं?
गच्छति.
गच्छति. कर्तृपदं किम्?
कर्तृपदं सः.
सः गच्छति.
सः गच्छति.
गच्छति. सः गच्छति स्म.
वह गया.
हा, गच्छति, जा रहा है.
जा रहा है.
तदनन्तरं
जा रहा है.
देन वृषभ शकटेन. कीदृशपदं?
वृषभ शकटेन.
तेन.
वृषभ शकटेन.
तेन. कीदृशपदं? विभक्तिरूपं किम्?
के द्वारा? शकटेन.
कथं कथं जानीमः?
वनेन. वनेन शकटेन.
वनेन. वनेन. किन्तु अत्र लिङ्गं किं? शकट. लिङ्गं किं?
शकटेन. लिङ्गं नपुंसकलिङ्गं. पुल्लिङ्गं.
नपुंसकलिङ्गं. हा, नपुंसकलिङ्गं.
वनेन तु नपुंसकलिङ्गं. तो शकटेन.
हा, शकटेन भगिनी. ने शकटेन.
शकटेन.
शकटेन कीदृशपदं? तृतीया.
तृतीयविभक्ति.
हा, यथा
एकवचन.
हा, यथा फलं. सर्वाणि रूपाणि पठतु. फलं.
फलं फले फलानि. फलं फले फलानि. फलेन फलाभ्यां फलै.
भगिनी भगिनी. फलेन.
फलेन. फलेन फलाभ्यां फलैः.
फलैः. फलैः.
फलैः. फलैः.
तदनन्तरं चतुर्थी.
चतुर्थी. फलाय.
फलाय.
फलाय. फलाभ्यां फलेभ्यः. फलात् फलाभ्यां फलेभ्यः. फलस्य फलयोः फलानां. फले फलयोः
फलानां.
फलानां. फले फलयोः फलेषु. हे फल. हे फल. हे फलानि.
हे फल वा?
हे फल.
फल.
हे फल. हे फल. हे फलानि.
अधुना तु वृषभशकटेन इत्युक्ते किं? कोऽपि जानाति वा?
बैलगाड़ी
बैलगाड़ी एव वृषभ इत्युक्ते बैल शकट इत्युक्ते गाड़ी बैलगाड़ी इत्युक्ते वृषभ शकटेन गच्छति बैलगाड़ी से जा रहा कह सह सह कह देवभक्तः
सह देवभक्तः
हाँ कदा कदा
कदा कदा मतलब एकस्मिन् दिवसे
हाँ एकस्मिन् दिवसे दिवसे इत्युक्ते
दिन दिवसे
न न विभक्ति रूपम
देव दिवसे
कीदृश पदम
सप्तमी विभक्ति
पदम
बने
कीदृश बने तत्तु नास्ति कीदृश पदम वनम तु लिंगम किम
वनम तु नपुंसक लिंगम
अत्र किम दिनम वा दिने वा दिनस
दिनम की दिवस दिवस
समीचीनम् इत्युक्ते पुंलिङ्ग अपि नपुंसकलिङ्गं पदं दिनम् अपि च दिनः द्वे अपि समीचीनं दिनः इत्युक्ते पुल्लिङ्ग पलं पदम् अपि समीचीनं दिनम् अपि समीचीनं सत्यं भगिनि क्षम्यताम् अस्तु यदि दिनः अस्ति चेत् सर्वाणि रूपाणि वदतु
भगिनि एकः प्रश्नः दिवसे इति प्रातिपदिकं दिवस इति
दिवस दिवस तु सत्यं भगिनि कीदृशपदं
पुंलिङ्गपदम् अकारान्त पुंलिङ्गपदम्
अस्ति वा नपुंसकलिङ्गं नास्ति वा धन्यवाद तदेव भ्रम जात उत्तमं धन्यवाद भगिनि अस्तु दिवसे दिवसे पुंलिङ्गपदम् अस्ति कीदृशपदं दीक्षिका भगिनी
सप्तमी विभक्ति एकवचन
अस्तु दिवस अकारान्त पुंलिङ्गपदम् अस्ति
अकारान्त पुंलिङ्गपदं
सर्वाणि रूपाणि वदतु
दिवस दिवसः दिवसौ दिवसाः दिवसं दिवसौ दिवासान् दिवसेन दिवसाभ्यां दिवसै दिवसाय दिवसैः दिवसाय दिवसाभ्यां दिवसेभ्यः दिवसात् दिवसाभ्यां दिवसेभ्यः दिवस दिवस्य दिवसयोः दिवसानां दिवसे दिवसयोः दिवसेषु हे दिवस हे दिवसौ हे दिवसाः
उत्तमम् अधुना तु दिवसे एकस्मिन् एकस्मिन् कीदृशपदम्
एकस्मिन् 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 एक कोई भी एक दिन एक दिन
किन्तु पदं कीदृश पदं रूपं किं सुधा भगिनी वदतु
एकस्मिन्
एकः योगः अस्मिन् एकस्मिन्
तत्तु सत्यं तत्तु सत्यं एकस्मिन् प्रातिपदिकं किं तत्र
एकस्मिन् अस्मिन् इति इदं प्रातिपदिकं
न न एक एव भगिनि
एकस्मिन् सप्तमी एकवचनं भगिनि प्रातिपदिकम् एक
एक
भगिनि
वदतु शैलजा भगिनि
एकः एका एकम् एकम् एकाम् एकम् एकेन एकया एकेन
भगिनि एकनिमिष किन्तु ते रूपाणि कानि पुंलिङ्गानि स्त्रीलिङ्गानि अपि च नपुंसकलिङ्गानि रूपाणि
आं भगिनि
पश्यतु एकवारम् एकः एका एकं तु
ओन्लि पुल्लिङ्ग वा भगिनि आम्
वचनानि
एकः एकम् एकेन
एकनिमिषम्
आं भगिनि
एकः एका एकं तु वचनरूपाणि न सन्ति इत्युक्ते एका स्त्रीलिङ्गमस्ति
एका स्त्रीलिङ्गमस्ति
एकम्
आं भगिनि
नपुंसकलिङ्ग
नपुंसकलिङ्गपदमस्ति
विशेषणविशेष्यभावस्ति दिवसे अस्ति इत्युक्ते पुंलिङ्गं पदमेव
स्वीकुर्मः
पुंलिङ्गरूपाणि वदतु
एकः एकम् एकेन एकस्मै एकस्मात् एकस्य एकस्मिन् एकस्मिन् सप्तमी विभक्ति एकवचनशब्दः
तदेव पुंलिङ्गमस्ति चेत् स्त्रीलिङ्गमस्ति चेत्
एकस्यां
नपुंसकलिङ्गमपि समानेव
नपुंसकलिङ्गमपि समानेव एकस्मिन्
एकस्मिन् दिवसे इत्युक्ते सप्तमी सप्तमी एकस्मिन् एक दिन मे एकस्मिन् दिने दिवसे एक किसी एक दिन में अस्तु अस्तु अग्रिमं पठतु दीक्षिका भगिनी
तदैव
तदैव तदैव
तदैव वृष्टिः आरभत आरभत
आरभत
आरभत
क्रियापदं किं तत्र
तदैव वृष्टिः आरभत
क्षम्यताम् एकम् अन्यवाक्य अस्ति तत्र भगिनी तस्य पूर्वम् एकं वाक्यमस्ति पठतु तत्र
अच्छा हा मृण्मार्गः आसीत् मृण्मार्गः आसीत्
इत्युक्ते
मृण मार्ग मिट्टी का मार्ग था
मृण मार्ग आसीत किम आसीत इत्युक्ते कः आसीत
मृण मार्ग
मृण मार्ग आसीत उत्तमम् अग्रिमम्
तदैव वृष्टिः आरभत तदैव वृष्टिः आरभत
क्रियापदं किम्
आरभत
आरभत इत्युक्ते
वृष्टिः
आरभत इत्युक्ते किम्
आरभत आरभत क्रिया
अन्य कोऽपि साहाय्यं करोतु आरभत
विल् बिगिन् भगिनि
क्रिया
न
विल् बिगिन्
भविष्य आरभत कीदृशपदं सुधा भगिनी
बिगिन् इस् इट् भविष्यकाल भगिनी विल् हि विल् बिगिन्
आरम्भकरणा
तदेव पापाजी सत्यम् इत्युक्ते लकार किम्
आरभत
लङ् लकार
लङ् एव आरभत
आरभत
आरभत आरम्भ हिन्दीभाषायाम् आरम्भ हुई आरभत यथा भवत्
भूतकाल में बिगिन होना भगिनी
तदेव
सॉरी या आई मेंट टू से दिस एंड आई सेड भविष्यकाल सॉरी हां भगिनी
तदेव सत्यम् इत्युक्ते भूधातु अस्ति चेत् भूधातु अस्ति चेत् लट् रूपं किं कोऽपि जानाति वा भूधातु लट् रूपं किम् भूधातु लट् रूपं किम् कोऽपि वदतु
भवति भवतः भवन्ति
उत्तमं भवति भवतः
भवन्ति
भवन्ति लङ्रूपं वदतु
अभवत्
अभवत् अग्रिमम् अभवत् ताम्
अभवत् अभवताम् अभवत् अभवत्थान्
न न अभवन्
अभवन्
नकार अभवन्
गच्छान्
न गच्छान्
अभवन्
न न न न अगच्छत्
अगच्छत् अगच्छताम् अगच्छान्
अगच्छन् अगच्छन् ह्रस्व अकार दीर्घ नास्ति तत्र अगच्छन् इत्युक्ते किं सर्वे जनाः अगच्छन् सब लोग चले गए
अच्छा तो वो अगच्छत अगच्छताम और अगच्छन है
अगच्छन
अच्छा तो हमने हमने गलत लिखा है हमने अगच्छान लिखा है ना इसलिए
अधुना किम आरभत अभवत अन्ते तकार अस्ति चेत् आदौ अकार अस्ति चेत् किं लङ्रूपम् अस्ति अभवत् आरभत
आरभत
आरभत कः आरभत कः आरभत कः आरभत
तदैव आरभत
न न न कः कः इत्युक्ते कीदृशपदं कः
कः मतलब कौन कौन ने आरम्भ किसने
कः आरभत
तो देव भक्त
न भगिनी तदैव वृष्टिः आरभत कः आरभत अन्य कोऽपि साहाय्यं करोतु हा वृष्टिः आरभत एव वृष्टिः आरभत बारिश शुरू हुई
वृष्टिः
आरभत तदैव कदा 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 इत्युक्ते
कदा
यदा यदा हि धर्मस्य
कदा उसी समय
न कदा इत्युक्ते प्रश्नवाचक क आदौ क अस्ति कुत्र
कुत्र कति
कः कब उत्तमं कदा इत्युक्ते कब कदा वृष्टिः आरभत भगिनि
कदा वृष्टिः तदैव वृष्टिः आरभत
तदैव इत्युक्ते किम्
उसी समय
इत्युक्ते तदा एव तदा एव उस वक्त ही तदैव तदा एव उस वक्त ही एम्फैटिक एव वृष्टिः आरभत आरभत धन्यवाद भगिनी सुधा भगिनी
आम भगिनी घटिकात्रयं वृष्टिः निरन्तरम् आगतवती
क्रियापदं
क्रियापदम् आगतवती
आगतवती किम् आगतवती कः आगतवती
वृष्टिः आगतवती
वृष्टिः आगतवती कीदृशक्रियापदम्
आगतवती इति लङ्लकारः प्रथमपुरुषे एकवचनं
अस्ति वा
न न न आगतवती इति तवतु प्रत्यय
अत्र तु किमपि लकार नास्ति लकाररूपं नास्ति कृदन्तरूपम् अस्ति कृदन्तं कृदन्तं पदं कृदन्तं कृदन्त इत्युक्ते किम्
क्रियापदं सूचयति
क्रियापदं सूचयति अपि च
लेकिन् क्रियापदं नास्ति
नास्ति इत्युक्ते किं तिङन्तं रूपं नास्ति तिङन्तरूपं
तव तु पदानि क्रियासूचकः सूचकः पदानि सन्ति
पदानि तु नास्ति तव तु पदं नास्ति तव तु किम् अस्ति प्रत्यय अस्ति प्रत्यय इत्युक्ते किं
तव तु सफिक्स् सफिक्स्
प्रत्यय See, suffix is not a word in Sanskrit. It's very clearly defined what is a word. It's a sutram, beautiful sutram. Kopi janati va? What is a word, definition of word? Kopi janati va? Suptingantam padam paribhasha sutram. Suptingantam padam. Sup ityukte all the nouns.
Sanya padam asti.
Ting ityukte all the kriya padam because they have ting suffix. Either you have a sup suffix or you have a ting suffix. Then you are called a word. Sup tingantam padam. Then other words are there that are created not by ting but are also kriya vachaka. They are called krudanta. They are called krut. Anta, krit, anta, krudanta. So what do they tell you? The action, they are action informative words. But they themselves are not considered true verbs in Sanskrit. But why are they used? And why do they exist? Because it's an alternative. Different ways of saying the same thing. That's what makes a language rich. You know, if I only have two colors, one straight blue, one straight red, and I have no mixing, no shades, then it doesn't make it rich, a painting. What makes a painting rich is the different ways of saying the same thing. Same sky is there from this side of the picture to that side of the picture, but the blue is changing. Small shades of change make it richer, make it interesting, make it more attractive, and also brings in different meanings. So Sanskrit has a very, very, it has actually, so far in all of literature across the globe, it has the largest vocabulary of any language, Sanskrit. And the vocabulary of Sanskrit, by its own inherent nature, is infinite also. That is another aspect of it. Of course, you can say any language, you can add words. Adding words is different. There's a different system of adding vocabulary. But in Sanskrit, you create words. Through a very, very systematic process, very, very lined up process. So, that is why all these options exist. You can say, why only lung is not used everywhere, every time? Because it brings in diversity. One reason is that. Second reason is that for bhutakala, which means for past tense, many times lung lakar can become troublesome. Here it looks very simple. It is as much trouble as for example, lat. You have to remember gachati, gachata, gachanti, gachasi, gachata. You know, you have to remember those nine forms. And you can look at bhu dhatu and say, oh, same nine I have to remember. What's the big trouble? Trouble will happen when there is a upasarga in front of the dhatu. So, kriya is one word. Then I do prakriya. Now I added a What did I add in front of it? An upasarga. Prakriya. Now, the rule of lung says that if there is a upasarga in front of a word, then the a that comes in front of every rupam, for example, abhavat, abhavatam, abhavan, abhavaha, abhavatam, abhavata, all these a that comes in front of the kriyapadam cannot come in front of the upasarga. Because upasarga has to come first. Therefore, it comes after upasarga and before the rest of the world. So it becomes very complicated and very hard for the mind to figure out. Some upasargas are very complex, some padas are very complex, so it makes it challenging, and it is less familiar to the common speech. Therefore, in order to depict lung or past tense, they have tavatu is a pratyaya. It starts with the letter ka, half ka, then ta, then va, then ta and u. Tavatu, tavatu is a pratyaya. Pratyaya tukte suffix. So what do you do to that? You take your dhatu, whatever your dhatu. Dhatu ityukte kim, the moola rupa of the verb. And you add the pratyaya directly. Kridanta pratyaya, you add it directly. These are called kridanta pada. So, agatavan. Agam asti. So, this becomes agatavati. Here, there is no difference in purusha, which means whether somebody else is doing, whether you are doing, or whether I am doing, the word will be the same. What changes? Gender. If the third person is a female, then it will be agatavati. If you are female, same agatavati. Even for myself, I will say agatavati for past tense. So, aham agatavati, tvam agatavati, sita agatavati. You cannot do that for lung. So, in some sense, it is simpler. That is why this is called a tavatu pratyayanta padam. Agatavati. Avagatam, everybody understood basics? So, atra agatavati ityukte, my question immediately will not be kaha agatavati. What will it be? Why will it not be kaha agatavati? Like I've been asking this whole time.
Pratyaya itself says it is strilinga shabda.
Ah, therefore the question will be
ka agatavati.
Ka agatavati.
Vadatu ka agatavati.
Vrishtihi agatavati.
Vrishtihi strilingam padam. Tadeva vrishtihi agatavati. Kidrisha agatavati? Kriya visheshana padam kim tatra?
Nirantaram.
Nirantaram agatavati. Adverb. Nirantaram agatavati. Kidrisha agatavati? Nirantaram agatavati. Ghati katrayam. Ityukte?
Ghati katrayam.
Trayam ityukte? No, trayam ityukte?
Three.
Ghati ityukte? Hour also. Clock also, hour also.
Okay.
Ghatika trayam, 3 ghante ke liye. For 3 hours, ghatika trayam vrishtihi nirantaram agatavati. Ghatika trayam vrishtihi nirantaram agatavati. Agrimam patatu.
Tada tasya shakatasya chakram marge panke nimajjitam.
Kriyapadam?
Kriyapadam nimajjitam.
Nimajjitam. Kidrusha padam? Tattu astu, tattu api bhutakalarthaka padam. Ta pratyaya tatra. Nimajjitam ludanta rupam. ल्युडन्त इत्युक्ते नपुंसकलिङ्गं पदं सर्वदा ल्युडन्तरूपं निमज्जितम् इत्युक्ते अर्थः का भगिनी निमज्ज
लैक् सेङ्क्
सेङ्क् सङ्क् इन्सैड् निमज्जितं सङ्क् सङ्क्
सङ्क्
यू जस्ट् हव् टु थिङ्क् आफ् दिस् इफ् यू वाण्ट् यू केन् स्टार्ट् टु थिङ्क् आफ् दिस् तम् एण्डिङ्ग् एस् अ नपुंसकलिङ्गम् एण्डिङ्ग् there is a it is you can see that nimajjitam is a kind of a kriya suchaka correct so this how you start to identify nimajjitam is a kriya suchaka that's your first doubt then you are like well maybe it is telling me the kriya then the next thing you do nimajjitam iti tu napumsakalingam ending asti ichukte maybe it is something called ludant प्रत्यय ल्युडन्तं पदं ल्युडन्तं पदं ल्युट् ल्युट् प्रत्यय आगत्य ल्युट् प्रत्यय आगत्य ल्युडन्तं पदं भवति सो आल्वेज् इट् इस् अनदर् प्रत्यय इट् इस् अनदर् कृदन्तरूपं जस्ट् लैक् आगतवती इट् इस् नाट् अ लकार and it is using a certain different suffix. Agatavati was using tavatu. This one is using lyut. Nimajjitam. So, अधुना प्रश्न उदेति किं निमज्जितम्
चक्रं निमज्जितं
चक्रं निमज्जितं चक्रं निमज्जितं कुत्र निमज्जितम्
मार्गे पङ्के चक्रं निमज्जितम्
मार्गे इत्युक्ते
सप्तमी
सप्तमी पङ्के
पङ्के अपि सप्तमी विशेषणविशेष भावमस्ति द्वयोः मध्ये
मार्गे पङ्के पङ्के इत्युक्ते
पङ्के इत्युक्ते क्ले
इन् द मड् पङ्के मार्गे पङ्के चक्रं निमज्जितं शकटस्य
शकटस्य षष्ठी एकवचनमस्ति
कीदृशपदं लिङ्गं किम्
शकट शकट इति पुंलिङ्गम् एकवचन पुंलिङ्गम् एकवचन षष्ठी अस्ति
षष्ठी शकटस्य इत्युक्ते चके शकट शकट इत्युक्ते ठेला वर्णो गाडी सो शकटस्य चक्रं कस्य चक्रं शकटस्य चक्रम् बैलगाडिका चक्र तस्य तस्य इत्युक्ते
तस्य शकटस्य देवभक्तस्य
देवभक्तस्य
शकटस्य
तदा तस्य शकटस्य चक्रं मार्गे पङ्के निमज्जितम् उत्तमम् अग्रिमम्
उपविश्य
सः उपविश्य
सः उपविश्य
विश्य
सः उपविश्य प्रार्थनां कृतवान् देव
इति सः उपविश्य प्रार्थनां कृतवान् अत्र क्रियापदं किम्
क्रियापदम् इति क्रिया सूचयति कृतवान् तवतु प्रत्यय इति
तवतु प्रत्यय किन्तु पुंलिङ्गं रूपं
पुंलिङ्ग कृतवान् इति
कृतवान् स्त्रीलिङ्गमस्ति चेत्
कृतवती
कृतवती तु नास्ति अत्र तु कृतवान् कः कृतवान्
देवभक्तः कृतवान्
देवभक्तः कृतवान् देवभक्तने किया किं कृतवान्
प्रार्थनां कृतवान्
कर्मपदं प्रार्थनां कृतवान् उपविश्य इत्युक्ते
उपविश्य इत्युक्ते से ही स्टूड
विश धातुतः उपविश्य कीदृशपदं जानाति वा
उपविश्य ना भगिनि
उपविशति इति जानाति वा
इति जानाति
हा इत्युक्ते किं
बैठकर बैठकर उपविशत बैठना
बैठना बैठकर
बैठकर हा सो उपविश्य इति कीदृशपदम् इति इत्युक्ते उप तु उपसर्ग अस्ति सो देर् इस् अनदर् प्रत्यय काल्ड् त्वान्तप्रत्यय लैक् दृष्ट्वा वि सी आल् द टैम् इन् अभ्यासपुस्तकं पदं दृष्ट्वा परिवर्तनं करोतु लिखित्वा पठित्वा देखकर पढ़कर गत्वा जाकर सो दिस इज कॉल्ड त्वांत प्रत्यय अनदर प्रत्यय नॉट अ तिंगंत रूपम दिस इज अगेन अ प्रत्यय कृदंत रूपम नाउ व्हेन इन फ्रंट ऑफ द धातु देर इज एन उपसर्ग लाइक हियर देर इज उपविश्य उप इज अ उपसर्ग उप मीन्स उपसर्ग एंड धातु इज विश नाउ इंस्टेड ऑफ त्वांत यू विल नॉट से उपविश्त्वा यू विल ओनली यूज त्वांत व्हेन देर इज नो उपसर्ग इन फ्रंट ऑफ धातु इफ इन फ्रंट ऑफ धातु उपसर्ग कम्स देन यू हैव टू यूज द ल्यप दिस इज कॉल्ड द ल्यप प्रत्यय दैट इज व्हाई द य कम्स एट द एंड Upavishya means having sat. Baith kar. Upavishati. Upavishati we know. That much you can guess. From there you are thinking, oh, Upavishati. So what is the dhatu? Then vish is the dhatu. Upa is the upasarga. Then what is this ya doing? This ya has replaced the twanta. Twanta will tell you kar. Dekh kar, sun kar, kar kar, bana kar, bait kar. But there is no twa there. It is not upavishtwa. Because there is a upa there, it ends with a lyap, which means it ends with a ya. So upavishya. Means बैठ कर प्रार्थनां कृतवान् अवगतम्
So
these are all introducing these stories introduced to us कृदन्त रूपाणि Why are
भगिनी
वदतु
त्वान्त प्रत्यय अनेकानि सन्ति वा भगिनी दृष्ट्वा इज त्वा दृष्ट्वा पदं पदे त्वा इज अन्तपदम् अस्ति या उपविषय पदे या
अस्ति
अन्तचिह्न अस्ति सो त्वान्तप्रत्यय अनेक प्रत्यय अस्ति वा भगिनि
त्वान्त डस् नाट् हेव् डिफ्रेण्ट् रूपस् त्वान्त इस् ओन्ली त्वान्त बट् द फङ्क्षन् देट् त्वान्त डस् इस् बीङ्ग् पर्फार्म्ड् हियर् बै ल्यप् द फङ्क्षन् इस् द सेम् फङ्क्षन् इस् वाट् कर् कर कर देख कर सुन कर लिख कर पी कर सो कर दिस इज द फंक्शन बीइंग परफॉर्म कोई भी कार्य करके कुछ और जब करते हैं देन वी यूज दिस कर व्हेन डू वी यूज दिस कर फंक्शन मैंने देख कर बोला कोई भी वाक्य में जब दो क्रिया होती हैं एक के बाद एक जब दो क्रिया होंगी या दो से ज्यादा होंगी तो हम ये कर का फंक्शन यूज करते हैं हिंदी में है कि नहीं मैंने
हाँ
मैंने पढ़कर बोला
टू एक्शंस इन वन सेंटेंस ओवरलैपिंग ऑन वन अनदर
एक ही एक्शन होगा यू विल नॉट यूज इट सो व्हेन देयर आर टू एक्शंस इन अ सेंटेंस एंड द फर्स्ट एक्शन हैज अ उपसर्ग इन इट यू कैन नॉट से विश्वा इट्स अ डिफरेंट मीनिंग यू वांट टू से सिट हैविंग सैट
You want to say बैठ कर. So you have to use उपविश. I mean, there are other ways to say it also, but he wants to, chooses to use upavish, upavishati. Now, to change that upavishati, which is a tingantam kriyapadam, into this kridanta, then you, because there is a upa in front, it will become upavishya. Avagatam?
Aam, Bhagini.
Ah.
So, by looking at the end letter ya, we have to understand it is... Tvanta pratyayah and lyopa prankshan.
No, it is not tvanta. It is lyap.
Lyap pratyayah.
It is lyap. And you don't only look at the ya at the end. When you see a ya at the end of a, what looks like a kartra, kriya,
kriya padam,
then you also look for the upasarga in the front.
Haan.
You see a ya, then you see, oh, does the beginning have a something like a pra, upa, ava, all these are upasargas. You look for these kind of signals.
So, upasarga and latrupam and liyapratyaya.
Lat nasti atra, bhagini. Lat tu nasti. Keval dhatu asti, na?
Aam, bhagini. Vish dhatu asti. Aam, bhagini. Latrupam nasti.
Upasarga, yoga, dhatu, yoga.
Dhatu yoga lyap pratyaya.
Lap. Then you know that it is functioning like kar kar. Jo bhi hai, usko karke. So upavishya prarthanam kritavan iti.
Aam, bhagini.
Avagatam sarve?
Aam, bhagini.
So this is not anything to do with tvanta pratyaya.
No, the function is the same. That's all. That's why I gave up. The function that Tvanta does is the same thing that Lyap does. Then you can say, why are there two Kridanta Pratyayas for the same function? No, the function is same, but this one has a Upasarga and that one doesn't. That's the difference.
Right. The
construction is different. That's why I'm giving you Tvanta. They are not, they are separate Pratyayas used in slightly separate conditions. अग्रिम पठतु सुधा भगिनी देव
कृपया मम सहायं करोतु अहं तु तव परम भक्तोऽस्मि मयि कृपा करोतु इति
कृपां
करोतु इति
अत्र वाक्य कति वाक्यानि सन्ति
त्रीणि वाक्यानि सन्ति
त्रीणि वाक्यानि प्रथमवाक्ये क्रियापदं
करोतु
तदनन्तरं कर्तृपदं
कर्तृपदं कृपया मम सहायं करोतु देव प्रथम
संबोधन प्रथमा देव करोतु किं करोतु
सहायं करोतु सहायम् इति कर्मपदम् अस्ति
कर्मपदं कस्य सहायं
मम सहाय
मम मेरी सहायता करो कृपया वाक्यद्वयं द्वितीयवाक्यं पठतु
अहं तु तव भक्तोऽस्मि परम भक्तोऽस्मि
क्रियापदम्
अहं तु तव परम भक्तोऽस्मि अस्मि
अस्ति अस्मि अस्मि कीदृशपदम्
अस्मि इति उत्तमपुरुष एकवचन
धातु
अस् धातु
अस् धातुतः अस्मि अस्मि किम् अस्मि
परमभक्तः
परमभक्तः अस्मि अहं रामः अस्मि अहं भरतः अस्मि इत्युक्ते कर्तृपदं तु अहं किन्तु भक्तः अस्मि कीदृशभक्तः परमभक्तः अस्मि कस्य
देवस्य
देवस्य इत्युक्ते तव तव इत्युक्ते तुम्हारा तुम्हारा तुम कौन देव अहम् भक्तः अस्मि अहम् परमभक्तः अस्मि अहम् तव परमभक्तस्मि तु इत्युक्ते तु यथा हिन्दीभाषायां मैं परम भक्त हूँ मैं तो परम भक्त हूँ लिटिल बिट एम्फैटिक मैं तो परम भक्त हूँ दिस काइंड ऑफ तू अग्रिमम अंतिम वाक्य
मयि कृपां करोतु
मयि कीदृश पदम
मयि इति मयि सप्तमी
सप्तमी प्रातिपदिकम्
अस्मद्
अस्मद् सर्वाणि रूपाणि वदतु
अहम् आवां वयं मां मा आवां नौ अस्मान् नः मया आवाभ्याम् अस्माभिः मह्यं मे आवाभ्यां नौ अस्माभ्यं नः मत् आवाभ्याम् अस्मत् मम मे आवयोः नौ अस्माकं नः मयि आवयोः अस्मासु
अत्र तु मयि मयि इत्युक्ते
मयि इत्युक्ते in
mujh par mujh par
mujh par
in hindi it becomes see adhikarana we often are what should I say limited if we think in english in or on ho jata hai adhikarana in or on nahi hai actually the literal meaning of in or on nahi hai it is much more than that matlab mujh mein matlab it's more than physical it's more like kiska adhikaran chal raha hai wahan pe kiska adhikar hai jiska adhikar kahan pe chal raha hai wahan tak much more than mujh mein in and out in and on hai na to mujh par kripam karo to kripam tu kidrsha padam
kripam iti karma padam asti
ha karma padam asti kripam करोतु हा उत्तमम् इति अस्तु अग्रिमं वर्गे किञ्चित् अग्रिम पठितवन्तः अस्तु अधुना तु विरमामः धन्यवादः पापजी अन्तिम शान्तिपाठ वदतु
बोलते हैं
कौन सा वाला बोलेंगे पूर्ण मादा बोलेंगे
हाँ पूर्ण मादा बोल पूर्ण मादा पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ
धन्यवादः सर्वं कृष्णार्पणम् अस्ति नमस्कारः
नमस्कारः भगिनी थैंक यू
धन्यवादः
कविता भगिनी यू फेल्ट ऑल राइट